एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। प्रधानमन्त्री सुशीला कार्की निगदति वैदेशिक निवेशनस्य उत्पादनमूलक क्षेत्रे आकर्षणस्य आवासीयतर नेपालीनाम् वित्तस्य सुरक्षितरूपेण पारदर्शी रूपेण च परिचालनस्य नीति सर्वकारस्य प्राथमिकतायाम् वर्तते। काष्ठमण्डपे आयोजितस्य आवासीयतर नेपाली संघस्य द्वादश महाधिवेशनस्य विश्व सम्मेलनस्य च समापन समारोहे पूर्वेद्युः प्रधानमन्त्री कार्की आविश्वं प्रसृताः नेपालिनः नेपालस्य सद्भावना दूताः सन्तीति चर्चयन्ति तेषां योगदानस्य प्रशंसां कृतवती। नेपालस्य संविधानेन आवासीयतर नेपालीभ्य आर्थिक सामाजिक सांस्कृतिक कृतिकाधिकारैः सह नागरिकताया व्यवस्थाविता स्थिति चर्चयन्ति प्रधानमन्त्री कार्की। अनेन कार्येण प्रवासी नेपालीनाम् मातृभूमेश्च मध्ये विद्यमानः सम्बन्ध अतिरिक्त सुदृढो विहितोऽस्तीति प्रत्यपादयत्। अत्रान्तरे आवासीयतर नेपाली संघस्य अध्यक्षपदे हेमराज शर्मणम् प्रचेतुम् सहमति धृतास्ति। अध्यक्षपदे प्रत्याशिताम् प्रस्तुतवद्भ्याम् अन्य प्रत्याशिभ्याम् स्वस्य नाम्नः प्रत्यावर्तनानन्तरम् शर्मणः नाम्नि सहमति धृतास्ति। अध्यक्षपदाय शर्मणा सह रोबिन शेरचन इत्यनेन रविन वज्राचार्येण च प्रत्याशिता प्रस्तुता आसीत्। प्रधानमन्त्रिणा सुशीला कार्किणा काष्ठमण्डप जनपद प्रशासन कार्यालये सञ्चालितायाः सार्वजनिक सम्बोधन प्रणाल्याः निरीक्षणम् विहितम् वर्तते। काष्ठमण्डप जनपद प्रशासन कार्यालयम् प्राप्य ह्य प्रधानमन्त्रिणा कार्किणा सुशासनस्य प्रवर्धनाय प्रारब्धस्य सेवाप्रवाहस्य निदर्शनरूपेण सहितायाः समग्र प्रणाल्याः कार्यालय व्यवस्थापनस्य च निरीक्षणम् विहितम् अस्ति। निरीक्षणे गृहमन्त्री ओम प्रकाश अरियालः अन्य उच्च पदाधिकारिणश्च सहभागिनः आसन्। कार्यालयेन सेवा प्रवाहम् अतिरिक्तम् व्यवस्थितम् पारदर्शी जनमैत्री च विधातुम् सार्वजनिक सम्बोधन घोषणा प्रणाल्या सहितम् नूतन सेवा प्रारूपम् प्रारब्धमस्तीति ज्ञापितम् वर्तते। प्रणाल्या प्रारम्भणस्य आसन्न मासत्रयस्य अवधौ सेवाग्राहिषु सन्तुष्टि वर्धितास्तीति काष्ठमण्डप प्रमुख जनपदाधिकारी ईश्वरराज पौडेलः असूचयत्। निर्वाचन आयोगेन समानुपातिक निर्वाचन प्रणाल्याः पक्षतः षण्णाम् राजनीतिक दलानाम् दशाधिक शतम् जनाः निर्वाचिताः सन्तीति घोषणा विहिता वर्तते। एतत्पूर्वम् षड्भिः दलैः गोप्यसूचितः स्वस्य दलाय प्राप्तानाम् मतानाम् आधारेण निर्वाचनायोगे जनानाम् नाम्नाम् प्रस्तुतेः अनन्तरम् ह्य दशाधिक शतम् जनाः निर्वाचिताः सन्तीति घोषणा विहितास्तीति समानुपातिक निर्वाचन प्रणाल्याः निर्वाचनाधिकृतः आयोगस्य सचिवः कृष्णबहादुर राउत असूचयत्। आयोगेन विहिताया घोषणाया अनुसारेण राष्ट्रपा दलात् 57 जना, नेपाली कांग्रेस दलात् 72 जना, नेकपा एमाले दलात् 16 जना, नेपाली कम्युनिष्ट दलात् 9 जना, श्रम संस्कृति दलात् राष्ट्रिय प्रजातन्त्र दलात् च प्रतिदलम् 4 जना निर्वाचिता वर्तन्ते। षड्भ्यो दलेभ्य 10+ जनानाम् सांसद पदे निर्वाचनस्य स्थितौ 82 महिलाः निर्वाचिताः सन्तीति निर्वाचनायोगेन ज्ञापितमस्ति। यस्य अन्तर्गतम् राष्ट्रपा दलात् 48, नेपाली कांग्रेस दलात् 15, नेकपा एमाले दलात् 10, नेपाली कम्युनिष्ट दलात् 4, श्रम संस्कृति दलात् 4, राप्रपा दलात् 2 च महिला सांसदाः निर्वाचिताः सन्तीति निर्वाचनाधिकृतः कृष्णबहादुर राउत असूचयत्। नेपाले पश्चिम न्यूनचापीय जलवायु प्रणाल्याः प्रभावस्य कारणेन काष्ठमण्डपोपत्यका सहितेषु देशस्य विभिन्नेषु स्थानेषु मेघगर्जनेन सह हिमालयीय क्षेत्रेषु हिमपातः सम्भूतो वर्तते। काष्ठमण्डपोपत्यकायाम् झञ्झावातेन वज्रपातेन मेघगर्जनेन च सह वृष्टिः सम्भूतास्तीत्यतः सावधानताम् अवलम्बितुम् जलवायु वातावरण विज्ञान विभागस्य अन्तर्गतया वातावरण पूर्वानुमानमा शाखया सर्वे अनुरुद्धाः वर्तन्ते। एवमेव कोशी गण्डकी लुम्बिनी कर्णाली प्रदेशानां पर्वतीय भूभागेषु हिमालयीय भूभागेषु च प्राय स्थानेषु सामान्य वृष्टि हिमपातश्च सम्भूतो वर्तेते। अद्यापि कोशी बागमती गण्डकी प्रदेशानां पर्वतीय भूभागानां कतिपय स्थानेषु परश्वः कोशी गण्डकी कर्णाली सुदूरपश्चिम प्रदेशानां हिमालयीय भूभागानां कतिपय स्थानेषु च मेघगर्जनेन सह सामान्य वृष्टि हिमपातश्च सम्भविष्यतः इति महाशाखया ज्ञापितं वर्तते। महिला अधिकार कर्मीभिः लैंगिकायव्यय विवरणस्य क्रियान्वयने बलं दत्तं वर्तते। राष्ट्रिय महिला आयोगेन ह्यः काष्ठमण्डपे आयोजिते लैंगिकोत्तरदायिनः आयव्ययकस्य क्रियान्वयनस्य अवस्था सम्बद्धे अन्तरक्रिया कार्यक्रमे राष्ट्रिय महिला आयोगस्य अध्यक्ष कमला कुमारी पराजुली लैंगिकायव्यय विवरणस्य समुचित स्थाने व्ययं कर्तुं परामृशद। अन्तरक्रियायां गत चतुर्णां वर्षाणां लैंगिकायव्यय विवरणानां क्रियान्वयनस्य अवस्थाया सम्बन्धे प्राशासनिक प्रशिक्षण प्रतिष्ठानेन विहितम् अध्ययनमपि सार्वजनिकृतम् आसीत्। नेपाल प्रहरिणा एक कोट्या षोडश लक्षैश्च रूप्यकैश्च हुण्डी नामाख्यस्य व्यवसायस्य सञ्चालकम् अवैध वित्त व्यवसायी जनद्वयम् निगृहीतम् वर्तते। काष्ठमण्डप जनपद प्रहरी परिसरस्य समूहेन काष्ठमण्डप जनपदस्य नागार्जुन नगरपालिकायाः अष्टमौडा क्षेत्रस्य भीमढुङ्गा स्थानात् अवैध वित्त व्यवसायस्य वित्तेन सह स्थानीयौ अष्टाविंशति वर्षीयौ सागर गिरी प्रमोद प्रसाद धितालश्च निगृह्य ह्यः सार्वजनिकृतौ वर्तेते। परिसरस्य प्रवक्ता प्रहरी परीक्षकश्च पवन कुमार भट्टराई अभौतिक मुद्राणां वित्त व्यवसाय विधीयमानोस्तीति सूचना प्राप्तेः पश्चात् एतौ निगृहीतौ इति अज्ञापयत्। अस्य वर्षस्य दण्डपाणी नन्दकुमारी अर्ज्याल स्मृति राष्ट्रिय पुरस्कारं कूटनीतिज्ञाय प्राध्यापकाय डाक्टर जयराज आचार्याय प्रदातुं निर्णीतं वर्तते। दण्डपाणी नन्दकुमारी अर्ज्याल स्मृति केन्द्र कार्य समितेः उपवेशेन 50,000 रूप्यकाणां वित्तराशे पुरस्कारममुम् अस्यैव चैत्रस्य एकादशे दिवसे कूटनीतिज्ञाय प्राध्यापकाय डाक्टर आचार्याय प्रदातुं निर्णीतमस्ति इति स्मृति केन्द्रस्य महासचिवः कपिल चन्द्र खनालः असूचयत्।